तान् विषन्नान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु मच्छस्त्रपादसम्भूतान् रक्तबिन्दून्महासुरान् रक्तबिन्दो प्रदीच्छत्वं वक्त्रेणानेन वेगिना पक्षयन्ति चररणे तदुत्पन्नान्महासुरान् एवमेष क्षयं दैत्य क्षीणरक्तो गमिष्यति पक्ष्यमाणास्त्वया चोक्रा न शोत्पत्स्यन्ति चापरे इत्युक्त्वा तां ततो देवी शूलेनाभिजगानतं मुखेन काली जगृहे रक्तबीजस्य शोणितं तदो सा वा जगानात कथया तत्र चण्डिकां न चास्या वेदनां चक्रे कदा पादोल्पिकामपि तस्या हदस्य देहातु बहु शुश्रावशोणितं यदस्तदस्तद्वक्त्रेण चामुण्डा सम्प्रदीच्छति मुखे समुत्कता येस्यां रक्तपादान् महासुरां तां चखादात चामुण्डां पभौ तस्य च शोणितं देवी शूलेन वज्रेण पाणैरसिविरुष्टिभिः जगानरक्तबीजं तं चामुण्डापीतशोणितं सपबातमहीपृष्टे शस्त्रशङ्कसमाहतः नीरक्तच्च महीबालं रक्तबीजो महासुरः तदस्ते हर्षमतुलं मवापुस्त्रिदशा नृपम् तेषां मातृखणो जातो ननर्ता शृङ्मतोत्तदः ॐ ॐ जय जय श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्त्रे देवी महात्म्ये अष्टमोऽध्यायः सम्पूर्णम्।